एषा रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। ललितपुरस्य जावलाखेलस्थाने पारम्परिकं सांस्कृतिकं भोटो जात्रेति कञ्चुक प्रदर्शन पर्व अद्य समायोज्यमानमस्ति। पुरा कर्कुटक नागेन स्व नागिन्यः नेत्रस्योपचारं कुर्वते वैद्याय प्रदत्तं रत्नमयं कञ्चुकम् केनचन प्रेतेन चोरितम् आसीत्। ततः रक्तमसेन्द्रनाथस्य रथयात्रायाः अवसरे बहवो जनाः दर्शनार्थम् आगच्छन्ति, तदानीं तत्कञ्चुकमपि प्राप्यते इति मत्वा आगतेन वैद्येन चोरः प्रेतः निगृहीतः। परन्तु कञ्चुकं कस्यास्ति इति उभयोर्मध्ये विवादः सञ्जातः। ततः विवादस्य समाधानाय राज्ञः गुणकामदेवस्य पार्श्वे उभावपि प्राप्तौ। राज्ञा च उभयोर्मध्ये येन प्रमाणत्वेन साक्षिणम् आनीय कञ्चुकस्य स्वामित्व प्रमाणीक्रियते तस्मै एव कञ्चुकं प्रदीयते उक्तमासीत्। परन्तु कारणवशात् वैद्येन च प्रमाणम् आनेतुं न शक्तम्। ततः राज्ञा प्रतिवर्षं रथस्योपरि गत्वा कञ्चुकमिदं कस्य अस्ति इति पृष्ट्वा कञ्चुक प्रदर्शनस्य परम्परा प्रारब्धेति ऐतिह्यं वर्तते। ऐतिह्यानुसारेणैव प्रतिवर्षं रक्तमत्स्येन्द्रनाथस्य रथयात्रायाः जावलाखेल प्रापणस्य चतुर्थदिने कञ्चुक प्रदर्शन पर्व समायोज्यते। रक्तमत्स्येन्द्रनाथस्य रथयात्रा अस्यैव आषाढमासस्य तृतीये दिवसे सम्पन्ना आसीत्। अद्य कञ्चुक प्रदर्शन पर्व समायोज्यमानं वर्तते। प्रतिनिधिसभायाः स्थनोपवेशेन चत्वारो अध्यादेशाः स्वीकृताः सन्ति। उपवेशेन सर्वकारेण गत चैत्र मासे क्रियान्वितः सार्वजनिक क्रयण सम्बद्ध एतद् विक्रमवर्षीयः द्वितीय संशोधनाध्यादेशः सम्पत् शुद्धिकरण निवारण सम्बद्ध एतद् विक्रमवर्षीय तृतीय संशोधनाध्यादेश सहकारी सम्बद्ध एतद् विक्रमवर्षीय प्रथम संशोधनाध्यादेश स्वास्थ्य विज्ञान प्रतिष्ठान सम्बद्धान कतिपयान् नेपालाधिनियमान् संशोधयितुं निर्मितः एतद् विक्रमवर्षीय अध्यादेशाश्च स्वीकृताः वर्तन्ते। उपवेशे एतद् विक्रमवर्षीयम् आर्थिक विधेयकम् एतद् विक्रमवर्षीयं राष्ट्र ऋणोत्थापन विधेयकं चाधृत्य विचारितामिति निगद्य प्रस्तुतौ प्रस्तावौ सभया स्वीकृतौ स्तः। प्रस्तावमाधृत्य विहिते विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डॉ सोणीम वाग्ले सामाजिक न्यायेन सहितं अर्थतन्त्रं केन्द्रे निधाय करमूल्यं निर्धारितम् अस्ति इति अगदत्। उपवेशे सांसदैः स्वास्थ्य शिक्षा प्रभृतिषु क्षेत्रेषु निर्धारिताः कराः प्रत्यावर्तनीयाः, निर्यात सम्बद्धम् उत्पादनं प्रोत्साहनीयम्, नागरिकाणां जीवनयापने सहजताम् आनेतुं ध्यानं देयं चेति बलं दत्तमासीत्। प्रतिनिधिसभायाः अपरोपवेशः आषाढमासस्य एकादश दिवसे पूर्वाह्नस्य एकादशवादने वस्ता। राष्ट्रियसभायाः स्थनोपवेशेन विभिन्नाः अध्यादेश सम्बद्धाः प्रस्तावाः स्वीकृताः सन्ति। प्रधानमन्त्रिणः बालेन्द्रशाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतमेन एतत् विक्रमवर्षीयः सार्वजनिक क्रयण सम्बद्ध द्वितीय संशोधनाध्यादेशः स्वीक्रियतामिति निगद्य प्रस्तुतः प्रस्तावः बहुमतेन स्वीकृतोऽस्ति। उपवेशे प्रधानमन्त्रिणः शाहस्य पक्षतः विधिमन्त्रिणा गौतमेन थारू आयोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतमासीत्। उपवेशे अर्थमन्त्रिणा डॉ सोणीम वाग्ले विधेन सम्पत् शुद्धिकरण निवारण तृतीय संशोधनाध्यादेशः स्वीक्रियतामिति निगद्य प्रस्तुतः प्रस्तावः बहुमतेन स्वीकृतोऽस्ति। तदनु भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रिणा प्रतिभा रावल इत्यनया एतद् विक्रमवर्षीयः सहकारी सम्बद्ध प्रथम संशोधनाध्यादेशः स्वीक्रियतामिति निगद्य प्रस्तुतः प्रस्तावः सभया स्वीकृतोऽस्ति। स्वास्थ्य खाद्य स्वच्छता मन्त्रिणा निशा मेहता इत्यनया प्रस्तुतः स्वास्थ्य विज्ञान प्रतिष्ठान सम्बद्धान् कतिपयान् नेपालाधिनियमान् संशोधयितुं निर्मितः प्रस्तावः उपवेशेन बहुमतेन स्वीकृतोऽस्ति। राष्ट्रसभायाः अपरोपवेशः अस्यैव आषाढमासस्य एकादश दिवसे दिवा सपादैकवादने वस्ता। सर्वकारेण नेपाल न्यासपत्र समितेः अध्यक्ष पदे कैलाली जनपदस्य डॉ गोपाल प्रसाद भट्टः नियुक्तोऽस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य उपविष्टेन मन्त्री परिषदः उपवेशेन एवं निर्णीतमस्ति इति सूचना संचार मन्त्री डॉ विक्रम तिमिलसिन्हा अज्ञापयत्। उपवेशेन द्वाचत्वारिंशदधिकद्विसहस्रतम विक्रमवर्षस्य नेपाल विशेष सेवाधिनियमस्य पूर्व स्वीकृतां सेवां पुनरुज्जीवयितुं प्रस्तुतं विधेयकं संघीय संसदि प्रस्तोतुं स्वीकृतिः प्रदत्ता अस्ति। अथ च राष्ट्रिय सेवादल सम्बद्धं विधिं संशोधयितुं एकीकर्तुं च निर्मितं विधेयकमपि संसदि प्रस्तोतुं निर्णीतमस्तीति संचार मन्त्री डॉ तिमिल सिन्हा असूचयत्। उपवेशन चतुस्सप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयं सहकारी सम्बद्धाधिनियमं सार्वजनिक क्रयण सम्बद्धं त्रिषष्ट्युत्तर द्विसहस्रतम विक्रमवर्षीयाधिनियमं चतुष्षष्ट्युत्तर द्विसहस्रतम विक्रमवर्षीयं सम्पद शुद्धिकरण निवारणाधिनियमं स्वास्थ्य विज्ञान प्रतिष्ठान सम्बद्धान कतिपय नेपालाधिनियमान् च संशोधयितुं निर्मितानि प्रतिस्थापन विधेयकानि संघीय संसदि प्रस्तुतुं स्वीकृति प्रदानाय निर्णयो विहितोऽस्तीति संचार मन्त्री डॉ तिमिल सिन्हा अज्ञापयत्। काष्ठमण्डप जनपद न्यायालयेन राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विदस्य विरूद्धे पञ्जीकारितं संघटितापराध सम्बद्धम् अभियोगपत्रं प्रत्यावर्तयितुम् अनुमतिः प्रदत्ता अस्ति। न्यायाधीशस्य आत्मदेव जोशिनः न्यायपीठेन सभापतेः लामिछाने विदस्य विरूद्धे पञ्जीकारितस्य संघटितापराध सम्बद्धस्याभियोगस्य याचिका निवेदनं प्रत्यावर्तयितुम् आदिष्टमस्ति। सहकारी वित्तस्य वञ्चनेन संघटितापराधेन च सम्बद्धे आरोपी काष्ठमण्डप जनपद सर्वकारी अधिवक्तृ कार्यालयेन अभियोगपत्रस्य संशोधनस्य निवेदनं प्रस्तुतमासीत्। एतत्पूर्वं सभापतिः लामिछाने विदस्य संघटितापराध सम्बद्धम् अभियोगपत्रं कास्की जनपद न्यायालयेन पर्सा जनपद न्यायालयेन च प्रत्यावर्तयितुम् अनुमतिः प्रदत्ता आसीत्। राष्ट्रिय परीक्षा समित्या द्वादश कक्षायाः परिणामः प्रकाशितोऽस्ति। ह्यः उपवेशेन समित्याः उपवेशेन द्वादश कक्षायाः परीक्षायाः परिणामः प्रकाशितोऽस्ति। समितेः अनुसारेण 3,00,000 32,000 241 च नियमित छात्राः परीक्षायां सम्मिलिताः आसन्। तेषु 2,13,770 छात्राः सर्वेषु विषयेषु श्रेणीं लब्धवन्तः। गतवैशाख मासस्य चतुर्दश दिवसात् दिवसं यावत् सञ्चालितायाः परीक्षायाः समाप्तेः 35 दिवसानाम् अभ्यन्तरे द्वादश कक्षायाः परीक्षा परिणामः प्रकाशितोऽस्ति। इति समाचारः।